वित्ते वितत्क्रमे पृथिवी मेष एतान् रूपासो अस्य हि